एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्रिणा केपी शर्मा ओलिना ह्यः राष्ट्रिय गौरवस्य आयोजनानाम् कार्येभ्यः तीव्रता प्रदानस्य विषये सम्बद्ध मन्त्रिभिः सचिवैः आयोजनानाम् प्रमुखैः सम्बद्ध पक्षैश्च सह विमृष्टमस्ति। सिंहप्रसादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषद कार्यालये ह्यः विहिते विमर्शने राष्ट्रिय गौरवस्य विभिन्न योजनानाम् वर्तमानावस्थायाः वित्तीय भौतिक प्रगतेः विद्यमान समस्यायाः समाधानस्य उपायानाम् च विषयेषु विमृष्टम् अस्ति। विमर्शने आयोजना प्रमुखाः आयोजनाभ्य वित्तीयाभावस्य स्थिति, भूमेः अधिग्रहणे, वृक्षाणाम् कर्तने च जायमाना समस्या, जलविप्लव भूस्खलनैः मार्गे अवरोधः, बहुश्रमसाध्य प्रक्रिया, सहयोगे विवाद, न्यायिक करणानि चेत्यादयः समस्याः सन्तीति न्यश्चिन्वन्। उपवेशम् सम्बोधयन् प्रधानमन्त्री ओली वर्तमानावस्थाः सन्तोषजनिका नास्तीत्यतः कार्याय तीव्रता प्रदानाय सम्भावितोपायानाम् विषये जिज्ञासितवान् आसीत्। प्रधानमन्त्री ओली नूतन परिवर्तित चिन्तनेन आयोजनाः अग्रे वर्धनीयाः, देशे उत्पादकत्वम् प्रवर्ध्य देशस्य आत्मनिर्भर सम्पादनस्य उपायानाम् च विषये चिन्तनाय बलम् दत्तवान् आसीत्। विमर्शने उपप्रधानार्थमन्त्री विष्णु प्रसाद पौडेलः, गृहमन्त्री रमेश लेखकः, भौतिक पूर्वाधार यातायात मन्त्री देवेन्द्र दाहालः, ऊर्जा जलस्रोत सेचन मन्त्री दीपक खड्का, संस्कृति पर्यटन नागरिकोड्डयन मन्त्री बद्री पाण्डे, रक्षा मन्त्री मानवीर राई, पेयजल मन्त्री प्रदीप यादव, प्रधानमन्त्रिणः आर्थिक विषय परामर्शदाता डाक्टर युवराज खतिवड़ा, मुख्य सचिवः एक नारायण अरियालः, सम्बद्ध मन्त्रालयनाम् सचिवाः, आयोजना प्रमुखाश्च उपस्थिताः आसन्। प्रधानमन्त्री केपी शर्मा ओली चिकित्सा महाविद्यालयेषु विद्यमानम् आवासीय चिकित्सक स्नातकोत्तर स्तरीयेषु विद्या सम्बद्धम् विवादम् परस्परम् विमृश्य समाधातुम् सम्बद्ध मन्त्रालयान् निकायान् च निर्दिशति। बालवाटारावर्तिनी प्रधानमन्त्री निवासे ह्यः आयोजिते चिकित्सा शिक्षायोगस्य पञ्चदशे उपवेशे आयोगस्य अध्यक्षः प्रधानमन्त्री च ओली नैज सर्वकारीयम् च उभयमपि पक्षम् समाविश्य समाधानम् अन्वेष्टुम् शिक्षा विज्ञान प्रविधि मन्त्रिणम् विद्या भट्टराई इतिमाम्, स्वास्थ्य जनसंख्या मन्त्रिणम् प्रदीप पौडेलम् च आयोगस्य उपाध्यक्षम् प्राध्यापक डाक्टर अञ्जनी कुमार झा इतिमाम् च निरदिशत्। सभामुख देवराज घिमिरे निगदति नेपालेन शान्ति स्थापनायाम् मेलनस्य च क्षेत्रे च अधिगता उपलब्धि विश्वस्य कृते अनुकरणीया वर्तते। कम्बोडिया देशस्य राजधान्याम् नेम्पेन्स्थाने आयोजितम् सहिष्णुतायै शान्तये च अन्तर्राष्ट्रिय संसदः एकादशम् पूर्णसत्रम् इह सम्बोधयन् सभामुख घिमिरे नेपालः शान्तिदूतस्य भगवतः बुद्धस्य जन्मभूमि अस्तीति अवोचत। तदवदौ सभामुख घिमिरे नेपालेन शान्तेः सहिष्णुतायाश्च सन्देश प्रदानाय, द्वन्द्वस्य व्यवस्थापनाय, स्थायित्वाय च अन्तर्राष्ट्रिय समुदायाय महत्वपूर्णः पाठ शिक्षयितुम् शक्यते इति धारणाम् व्यक्तवान्। राष्ट्रपतिः रामचन्द्र पौडेल स्थानीय स्तरस्य उपनिर्वाचनस्य कृते नेपाली सेनायाः परिचालनाय स्वीकृतिम् प्रदत्तवान् अस्ति। राष्ट्रपतिना पौडेलेन नेपालस्य संविधानस्य अनुसारेण मन्त्रिपरिषदः निर्णयानुसारेण अस्यैव मार्गशीर्ष मासस्य षोडशे दिवसे सम्पत्स्यमानम् उपनिर्वाचनम् सुरक्षिते, भयरहिते, निष्पक्षे, शान्तिपूर्णे च वातावरणे सम्पादयितुम् नेपाली सेनायाः परिचालनाय स्वीकृतिः प्रदत्तास्तीति राष्ट्रपतेः कार्यालयस्य प्रवक्त्र्या शैलजा रेग्मी भट्टराई इत्यनया प्रकाशितायाम् विज्ञप्तौ उल्लिखितमस्ति। निर्वाचनायोगेन अस्यैव मार्गशीर्ष मासस्य षोडशे दिवसे सम्पत्स्यमानम् उपनिर्वाचनम् स्वच्छम्, स्वतन्त्रम्, निष्पक्षम्, विश्वसनीयम्, मितव्ययी च सम्पादयितुम् आवश्यक सहयोगाय आहूतम् वर्तते। आयोगस्य ह्यस्तनोपवेशेन मार्गशीर्षमासस्य त्रयोदशात् दिवसात् षोडशे दिवसे मतदानस्य समाप्तिं यावत् मतदानस्थलाय निश्चितेषु विद्यालयेषु वडा कार्यालयेषु स्वास्थ्य संस्थासु अन्यस्थलेषु च निर्वाचनस्य प्रयोजनाय सार्वजनिकावकाशं प्रदातुं तेषाम् उपयोगाय व्यवस्थां विधातुं च नेपाल सर्वकारस्य माध्यमेन उपनिर्वाचनस्थल सम्बद्ध स्थानीय स्तरेभ्य निर्देशनं प्रदातुं निर्णीतमिति आयोगस्य प्रवक्ता निता पोखरेल अरियाल अज्ञापयत्। राष्ट्रपतिः रामचन्द्र पौडेलः अस्ट्रेलिया देशस्य कृते नेपाली राजदूतपदे चित्रलेखा यादवं नियुक्तवान् अस्ति। राष्ट्रपतिना पौडेलेन नेपालस्य संविधानस्य अनुसारेण मन्त्रिपरिषदः परामर्शेन यादवः अस्ट्रेलिया देशस्य कृते नेपाली राजदूतपदे नियुक्तास्तीति राष्ट्रपति कार्यालयस्य प्रवक्त्रा शैलेजा रेग्मी भट्टराई इत्यनया प्रकाशितायां विज्ञप्तौ उल्लिखितं वर्तते। स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः मृत्योः अनन्तरम् अंगदानं विधित्सूनां जनानां परिवारेभ्य लक्षद्वय रूप्यकाणां प्रदानार्थं निर्णीतवान् वर्तते। भक्तपुरस्य मानवाङ्ग प्रत्यारोपण केन्द्रस्य पक्षतः एकलक्ष रूप्यकाणां प्रदानस्य सम्प्रति व्यवस्थायां सत्यां स्वास्थ्य मन्त्रालयेन अंगदातृणां परिवाराणां कृते अतिरिक्तं एकलक्षं रूप्यकाणि प्रदातुं निर्णीतं वर्तते। मन्त्रालयस्य आन्तरस्रोतसः आवश्यक वित्तस्य व्यवस्थापनत्वेन एवं सौविध्यं प्रदातुं निर्णीतमस्तीति मन्त्री पौडेलः असूचयत्। पेयजलमन्त्री प्रदीप यादवः भासते सर्वेभ्यो नागरिकेभ्य गुणस्तरीय पेयजलस्य प्रदानं सर्वकारस्य दायित्वं वर्तते। झापा जनपदस्य विभिन्नेषु स्थानेषु निर्माणाधीनानां पेयजल परियोजनानां ह्य स्थलगत निरीक्षणं विदधानः मन्त्री यादवः निर्माण प्रगत्या सहैव सृष्टानां काठिन्यानां विषयेऽपि जिज्ञासितवान् आसीत्। मन्त्री यादवः मेचीनगरे धुलावारी स्थाने च निर्माणाधीनानां पेयजलायोजनानां निरीक्षणं विदधान निर्धारित समय एव निर्माणकार्यं सम्पादयितुं सम्बद्धान् निकायान् निरदिशत्। राष्ट्रिय स्वतन्त्र दलस्य सभापतेः रवि लामिछाने विधस्य विषये अतिरिक्तानुसन्धानाय समयावधि वर्धितोऽस्ति। कास्की जनपद न्यायालयस्य न्यायाधीशस्य भीमलाल वेलवासे इत्यस्य न्यायपीठेन लामिछाने विधम् अतिरिक्तानि पञ्चदश दिनानि यावत् प्रहरी निग्रहणे संस्थाप्य अनुसन्धातुम् अनुमतिः प्रदत्ता अस्ति। एतत्पूर्व लामिछाने विधस्य अनुसन्धानाय कार्तिक मासस्य पञ्चविंशे दिवसे त्रयोदश दिवसानां समयावधि निर्धारितः आसीत्। लामिछाने विधस्य विषये सहकारी वित्तापचलनेन सहैव संघटितापराधस्य सम्पत्शुद्धिकरणस्य विषये च अनुसन्धानं जायमानम् अस्ति। त्रयस्त्रिंशत्तमम् अन्तर्राष्ट्रिय लैंगिक हिंसाया विरूद्धं षोडश दिवसात्मकम् अभियानम् अद्यतः प्रारभमाणं वर्तते। अस्माकं सर्वेषां प्रतिबद्धतां लैंगिक हिंसायाः अन्तायः अभियानम् इति समाघोषेण सञ्चाल्यमानस्य षोडश दिवसात्मकस्य अभियानस्य क्रमे महिलां बालबालिकां च प्रति जायमानस्य विभेदस्य हिंसायाश्च विषये प्रतीकात्मकस्य नाटकस्य प्रदर्शनं हिंसायाः विश्लेषणात्मकस्य पुस्तकस्य लोकार्पणं सम्बद्धैः पक्षैः सह मेलनम् आराष्टं गोष्ठ्यादि कार्यक्रमाणां सञ्चालनं च जायमानाः सन्तीति ज्ञापितं वर्तते। सुनसरी जनपदस्य इटरी उपमहानगरपालिकायाः सप्तदशवडा क्षेत्रस्य बालग्रामस्थाने दुरापन्नायां मोटरसाइकल यानस्य दुर्घटनायां द्वौ जनौ मृतौ स्तः।